अथ हठयोग प्रदीपिकायां चतुर्थोपदेशः नमः शिवाय गुर्वे नाद बिंदु कलात्मने निरंजन पदम याति नित्यं यत्र परायणः। अथेदानि प्रवक्ष्यामि समाधिक्रमं उत्तमं मृत्युघ्नं च सुखोपायं ब्रह्मानंदं करं परम्। राजयोग समाधिश्च उन्मनी च मनोन्मनी अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम्। अमनस्कं तथा द्वैतं निरालम्बं निरञ्जनम्। जीवन्मुक्तिश्च सहजा तुर्याचेतेकवाचकाः सलिले सैन्धवं यद्वत् साम्यं भजति योगतः। तथात्ममनसो रैक्यं समाधेरभिधीयते यदा संचीयते प्राणो मानसं चा प्रलीयते तदा समरसत्वं च समाधेरभिधीयते। तत्समं च दयोरेक्यं जीवात्मपरमात्मनोः प्रणष्ट सर्वसंकल्पः समाधिः सुअभिधीयते। राजयोगस्य महात्म्यं को वा जानाति तत्त्वतः। ज्ञानं मुक्तिः स्थितिसिद्धिर्गुरुवाक्येन लभ्यते। दुर्लभो विषय त्यागो दुर्लभं तत्त्वदर्शनम् दुर्लभा सहजावस्था सद्गुरोः करुणां विना। विविधैरासनैः कुम्भैर्विचित्रैः कर्णैरपि प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते। उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः योगिना सहजावस्था स्वयमेव प्रजायते। सुषुम्ना वाहिनी प्राणे शून्ये विशति मानसे तदा सर्वाणि कर्माणि निर्मूलयति योगवेत्। अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः पतितं वदने यस्य जगति च चराचरम्। चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे तदामरूलिव ज्रोली सहजोली प्रजायते। ज्ञानं कुतो मनसि संभवति हतावत् प्राणोऽपि जीवति मनुम्रियते न यावत्। प्राणो मनो द्वयमिदं विलयं नयोदे मोक्षसं गच्छति नरो न कथञ्चिदन्यः। ज्ञात्वा सुषुम्नाभेदं ज्ञात्वा वायुं च मध्यगम् स्थित्वा सदैव सुस्थाने ब्रह्मरन्ध्रे निरोधये। सूर्यचन्द्रमसौ धत्तः कालं रात्रिं दिवात्मकम् भोक्तृसुषुम्ना कालस्य गुह्यमेतत् उदाहृतम्। द्वासप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे सुषुम्ना साम्भवी शक्तिः शेषास्त्वेव निरर्थकाः। वायुपरिचितो यस्मात् अग्निना सह कुण्डलीं बोधयित्वा सुषुम्नायां प्रविशेत निरोधतः। सुषुम्ना वाहिनी प्राणे सिद्ध्यत्येव मनोन्मनी अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनां। पवनो बध्यते येन मनस्तेनैव बध्यते मनश्च बध्यते येन पवनस्तेन बध्यते। हेतु द्वयं तु चेत् तस्य वासना च समीरणः तयोर्विनिष्टा एकस्मिन् तौ द्वावपि विनश्यतः। मनो यत्र विलीयेत पवनस्तत्र लीयते, पवनो लीयते यत्र मनस्तत्र विलीयते। दुग्धाम्बुवत्सम्मिलिताभौ तौ तुल्यक्रियायै मानसा मारुतौ हि यतो मरुतत्र मनः प्रवृत्ते, यतो मनस्तत्र मरुत प्रवृत्तिः। तत्रैकनाशादपरस्य नाश एकप्रवृत्तेरप्रवृत्तिः। अध्वस्तयोश्चेन्द्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्य सिद्धिः। रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः, रसो बद्धो मनो बद्धं किन्न सिद्ध्यति भूतले। मूर्छितो रहते व्याधीन् मृतो जीवयति स्वयं, बद्ध खेचरतां धत्ते रसो वायुश्च पार्वती। मनः स्थैर्येश्चरो वायुस्ततो बिन्दुः स्थिरो भवेत्। बिन्दुस्थैर्या सदा सत्त्वं पिण्डस्थैर्यं प्रजायते। इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः, मारुतस्य लयो नाथः सलयो नादमाश्रितः। सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे। मनः प्राणलये कश्चिद् आनन्दः सम्प्रवर्तते। प्रणष्टश्वासने श्वासः प्रध्वस्त विषयग्रह। निश्चेष्टु निर्विकारश्च लयो जयति योगिनाम्। उच्छिन्न सर्वसंकल्पो निःशेषशेष चेष्टितः। स्वावगम्यो लयः कोऽपि जायते वा गोचरः। लयो लय इति प्राहुः कीदृशं लय लक्षणम्। अपुनर्वासोनोत्थानालयो विषय विस्मृतिः। अथ सांभवी मुद्रा। वेदशास्त्रपुराणानि सामान्यगणिका इव, एकैव सांभवी मुद्रा गुप्ताकुल्वधूरिव। अन्तर्लक्ष्यं बहिर्दृष्टिर्निर्मेषोन्मेषवर्जिता, एषा सा सांभवी मुद्रा वेदशास्त्रेषु गोपिता। अन्तर्लक्ष्य विलीन चित्त पवनो योगी यदा वर्तते, दृष्ट्या निश्चिलतारया बहिरधा पश्यन्नपि। मुद्रेयं खलु शाम्भवी भवति सा लब्ध्वा गुरुप्रसादाद् गुरोः। शून्याशून्यविलक्षणं स्फुरति तत्त्वं परं शाम्भवम्। श्रीशाम्भव्याश्चिखेचर्या अव्यस्थाधाम भेदतः, भवेच्चित्तलयानन्दः शून्ये चित् सुखरूपिणी। अथोन्मनी तारे ज्योते संयोज्य किञ्चिदुन्मनये ध्रुवो, पूर्वयोगं मनो युञ्जन्नुन्मनी कारकः क्षणात्। केचिदागम जालेन केचिद् निगम संकुलैः, केचित् तर्केण मोयन्ति नैव जानन्ति तारकम्। आपूर्यमाणम् अचल प्रतिष्ठम् अर्धोन्मीलेत् लोचनास्ते मना नासाग्रदत्ते क्षणचन्द्रार्का आर्का वापि लीनता उपनयन्नस्मिन् स्पन्द भावेन यः। अंतिम है तो अंतिम तक जाएगा और क्या है। संकल्प मात्र कलनैव जगत् समग्रम्, संकल्प मात्र कलनैव मनोविलासः, संकल्प मात्रम् अतिमोत्सृज निर्विकल्पः, आश्रित्य निश्चयम् आप्नुहि राम शान्तिम्।